एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति अपूर्ण योजनाः स्रोत साधनानाम् उचित व्यवस्थापनम् विधाय यथाशीघ्रम् पूरयितुम् सर्वकारः प्रतिबद्धोऽस्ति। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः प्रश्नोत्तरणस्य क्रमे प्रधानमन्त्री ओली भ्रष्टाचारम् गोपयितुम् अन्येष् आरोपः लाञ्छनाच न विधेये इति चर्चयन् राजनीतिक पूर्वाग्रहेण कस्यचिद् अपि जनस्य चरित्रहत्या न विधातव्येति प्रावोचत्। प्रधानमन्त्री ओली आत्मना अधुनावधि जनतायाः सेवायां जीवनं समर्पितमस्ति, अवशिष्ट जीवनमपि जनतायाः सेवायां समर्प्यते इति अवोचत्। प्रधानमन्त्री ओली भ्रष्टाचारं प्रति शून्य सहनशीलतायाः नीति अवलम्ब्यते, उच्च संकटग्रस्त क्षेत्राणि परिचित्य एकीकृत रूपेण तेषां प्रवर्धनात्मकः निरोधनात्मकः उपचारात्मकश्च उपायः अवलम्ब्यते चेति अगदत्। प्रधानमन्त्री ओली त्रिशूली नद्यां दुरापन्नायाः बसयानस्य दुर्घटनायाः विषयम् उपवेशम् ज्ञापयन् बसयानद्वये आरूढेष् द्वाषष्ट्यां जनेष् अधुनावधि पञ्चविंशतिर्जनानां शवाः प्राप्ताः सन्ति, तेष् अष्टादश जनाः सत्यापिताः वर्तन्ते, सप्तशवाः सत्यापयितुम् अवशिष्टाः सन्तीति उदैरयत्। प्रधानमन्त्री ओली विलुप्तानाम् जनानाम् अन्वेषणाय नेपाली सेना नेपाल प्रहरी सशस्त्र प्रहरी बलम् चेत्याहत्य 97% सुरक्षाकर्मिणः भारतीय प्लवन निपुणाः जनाश्च परिचालिताः सन्तीति असूचयत्। प्रधानमन्त्री ओली उद्योग क्षेत्रेण प्रदेय विद्युच्छुल्कस्य विषये नेपाल विद्युत प्राधिकरणस्य सेवाग्राहिणां च मध्ये स्थिते विवादे आत्मना अप्रयुक्तायाः विद्युतच्छुल्कम् अप्रयुक्तायाः विद्युतः शुल्कम् न देयम् इत्येव कथितमिति स्पष्टीकृतवान्। प्रधानमन्त्री ओली गण्डकी त्रिकोणीय मार्गम् सुरक्षितम् आधुनिकम् च विधाय आर्थिक तटीय मार्गस्य रूपेण विकसयितुम् नैज वित्तस्य परिचालनत्वेन च प्रक्रिया अग्रे वर्धितास्तीति असूचयत्। प्रधानमन्त्री ओली आर्थिक क्रियाकलापम् गतिशीलम् विधातुम् आवश्यकतास्तीति भाषमाणः मौद्रिक नीतिम् अतिरिक्ताम् सहजाम् विधाय देशस्य व्यावसायिक वातावरणे सुधारः करिष्यते इति प्रतिबद्धताम् अभिव्यनक। तत्पूर्वम् उपवेशे सांसदाः जलविप्लव भूस्खलनैः पीडितानाम् नागरिकाणाम् उद्धार सहयोग क्षतिपूर्तिनाम् व्यवस्थायै सर्वकारस्य ध्यानम् आकर्षयन् सभायाः आकस्मिक समये शून्य समये च सांसदाः जलविप्लव भूस्खलनेष् निपत्य विलुप्तानाम् जनानाम् अन्वेषणम् विधातुम् आहतानाम् जनानाम् उपचारस्य मृतकानाम् परिवारजनेभ्य उचित क्षतिपूर्तेश्च व्यवस्थाम् कर्तुम् सर्वकारस्य ध्यानम् आकर्षयन् उपवेशे सांसदाः पूर्वराज्यमन्त्रिणः रामचन्द्र रायस्य हत्या दुःखदा निन्दनीया चास्तीति भासमाणः घटनायाम् तथ्यम् अन्विष्य दोषिणः दण्डयितुम् अभ्ययाचन्त। प्रतिनिधिसभाया ह्यस्तनोपवेशेन राष्ट्रियसभायाम् निर्मितम् गतविक्रमवर्षीयम् विधायन सम्बद्धम् विधेयकमादृत्य विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे विधिन्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया विधेन प्रस्तुतः प्रस्तावोऽयम् सर्वसम्मत्या स्वीकृतोऽस्ति। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसति। राष्ट्रियसभाया ह्यस्तनोपवेशे सांसदाः भूस्खलन जलविप्लवादि प्राकृतिक प्रकोपेभ्य जाता जनधनयो क्षतिः सम्भूतास्तीति चर्चयन्तः प्राकृतिक विपदि मृतानां जनानां परिवारेभ्य समुचितां क्षतिपूर्तिं प्रदातुं सर्वकारम् अनुरुद्धवन्तः। सांसदाः वैदेशिक वृत्त्युपार्जनाय गताः महिला श्रमिकाः हिंसया प्रताड्यमानः सन्तीति उक्त्वा तासाम् उद्धाराय सर्वकारस्य ध्यानम् आकृष्टवन्तः। पश्चात्तन समये नेपाले आत्महत्यायाः घटनाः वर्धमानः सन्तीत्यतः सर्वकारीयस्तरादेव सञ्चेतनामूलकाः कार्यक्रमाः सञ्चालनीयाः। पोलियो नामकः रोगः पुनः दृष्टोऽस्तीत्यतः तद्विरुद्धे टीकौषधस्य व्यवस्था विधेयेति चोक्त्वा सर्वकारस्य ध्यानम् आकृष्टवन्तः। उपवेश्य प्रतिनिधिसभातः सशंशोधनम् प्रेषितम् सप्तसप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य अभिलेख संरक्षण प्रथम संशोधन विधेयकस्य पारितीकरणाय संस्कृति पर्यटन नागरिकोड्डयन मन्त्रिणा बद्रीप्रसाद पाण्डेयविधेन प्रस्तुतः प्रस्तावः सर्वसम्मत्या पारितीकृतो वर्तते। राष्ट्रियसभायाः अपरोपवेशः अस्यैव श्रावण मासस्य पञ्चदश दिवसे दिवा सपादैकवादने वस्ता। लुम्बिनी प्रदेशस्य मुख्यमन्त्री पदे नेकपा एमाले दलस्य संसदीय दलस्य उपनेता चेतनारायण आचार्य नियुक्तोऽस्ति। ह्य नेता आचार्य नेकपा एमाले दलस्य उनत्रिंशत नेपाली कांग्रेस दलस्य सप्तविंशतेश्च सांसदानाम् हस्ताक्षरै सहितं पत्रम् प्रदेश प्रमुखस्य समक्षम् प्रस्तुतवान् आसीत्। प्रदेश प्रमुख अमिक शेरचन संविधानस्य षट्सप्ततितम्याः धारायाः द्वितीयोपधारायाः अनुसारेण आचार्यम् मुख्यमन्त्री पदे नियुक्तवान् वर्तते। नेकपा एमाले दलेन नेपाली कांग्रेस दलेन च मुख्यमन्त्रिणा सहितानाम् सर्वेषाम् मन्त्रिणाम् युगपत शपथ ग्रहणस्य कृते प्रदेश प्रमुख अनुरुद्धो वर्तते। कर्णाली प्रदेश सर्वकारात् नेकपा माओवादी केन्द्रस्य मन्त्रिभिः त्यागपत्रम् दत्तमस्ति। कर्णाली प्रदेशस्य मुख्यमन्त्रिणः यामलाल कणेलस्य समक्षम् ह्य त्यागपत्रम् प्रदत्तम् वर्तते। माओवादी केन्द्रस्य पक्षतः प्रदेश सर्वकारे वीरबहादुर साई, महेन्द्र केसी, दीर्घ रावत, रणसिंह परियारश्च मन्त्रिणः आसन्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई भासते संचार माध्यमेषु प्रतिशतम् त्रिंशतः महिलानाम् सहभागिता सुनिश्चिता विधेया। ह्य ललितपुरे आयोजिते कार्यक्रमे मन्त्री भट्टराई संचार माध्यमेषु महिलानाम् सहभागितायाः नैनून्यम् दृष्टमस्तीत्यतः प्रतिशतम् त्रयस्त्रिंशता सहभागिता सुनिश्चिता विधेयेति अवोचत। बंगलादेशीय आरक्षण विरूद्धस्य आन्दोलनस्य वर्धनानन्तरम् स्वदेशम् प्रत्यागतैः नेपाली विद्यार्थिभिः ह्य परराष्ट्र मन्त्रिणा डाक्टर आरजू राणा देउवा इत्यनया सह मिलित्वा तत्र स्थितानाम् नेपाली विद्यार्थिनाम् कृते सुरक्षित वातावरणम् स्रष्टुम् कूटनीतिक प्रयासाय अनुरुद्धम् वर्तते। तदवसरे परराष्ट्र मन्त्री डाक्टर राणा मन्त्रालय सम्पर्क कक्ष संस्थापितोऽस्ति। ढाकावर्तिनम् नेपाली दूतावासम् सक्रियम् कृत्वा तत्रत्य नेपालीनाम् कृते आवश्यक सहयोगस्य व्यवस्थायै निर्दिष्टम् अस्ति दिच असूचयत। इति समाचाराः।